इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचको निक्षितः शास्त्री। गृहमन्त्री अमितशाहः उक्तवान् यत् विगतेष् वर्षेष् वामपन्थीय अतिवादस्य न्यूनीकरणे सर्वकारेण सफलता प्राप्तास्ति। अध्ना अयं युद्धः निर्णायकं चरणं प्राप्तवान् अस्ति। सः ह्यः नवदिल्लीनगरे वामपन्थीय अतिवादस्य विषये समीक्षा सम्मेलनस्य अध्यक्षतां कृतवान्। वामपक्षीय उग्रवाद प्रभावित राज्यानां मुख्यमन्त्रिणः, उपमुख्यमन्त्रिणः, अन्ये च सम्बद्धाः अधिकारिणः अपि अस्मिन् सम्मेलने उपस्थिताः आसन्। गृहमन्त्री स्वसम्बोधने उक्तवान् यत् सर्वकारस्य शून्य सहिष्णुता नीतेः फलस्वरूपं विगतेष् चतुर्दशकेष् गते वर्षे हिंसायाः, मृत्यूनां च न्यूनतमस्तरः अभिलेखितः। सिक्किम राज्यस्य मुख्यमन्त्री श्री प्रेम सिंह तामांगः उक्तवान् यत् उद्धार कार्यक्रमाः पूर्णरूपेण प्रचलन्ति तथा च विस्थापित परिवाराः शीघ्रमेव सामान्यतायाः मार्गे स्थापिताः भवेयुः इति सुनिश्चित्य आपदुद्धार दलानि सर्वान् प्रयत्नान् कुर्वन्ति। मुख्यमन्त्री ह्यः आपदा प्रभावित क्षेत्राणां भ्रमणं कृतवान्। तत्र मृतानां परिवारेभ्यः चतुर्लक्षरूप्यकाणाम् अनुग्रह राशेः घोषणामपि कृतवान्। केन्द्रसर्वकारेण जलप्लवनेन ग्रसिताय सिक्किमराज्याय आपत्सहयोगरूपेण पञ्चचत्वारिंशत् कोटिरूप्यकाणां सहयोग स्वीकृत। राशिरयम् अस्मै सत्राय राज्य आपदुद्धार सहयोग कोषात् केन्द्रीय पक्षत भाग्यराशि अपि भविष्यति। केन्द्रीय गृहमन्त्रालयेन हानेः आकलनाय एकः अन्तःमन्त्रालयीय केन्द्रीय दलस्य घटनमपि कृतमस्ति। गृहमन्त्रालयेन ज्ञापितं यत् दलमिदं शीघ्रमेव सिक्किमस्य जलप्लावित क्षेत्राणां यात्रां विधास्यति। अस्याकलनाधारेण राज्याय अतिरिक्त केन्द्रीय सहायतापि स्वीकरिष्यते। निर्वाचनायोगेन ह्यः मिजोरम, छत्तीसगढ, मध्यप्रदेश, राजस्थान, तेलंगानासु च विधानसभा निर्वाचनार्थं नवदिल्लीनगरे सामान्य अधिकारिणां, आरक्षिणां, व्यय पर्यवेक्षकाणां कृते संक्षिप्त सम्मेलनस्य आयोजनं कृतम्। मुख्य निर्वाचन आयुक्तः राजीव कुमारः सभां सम्बोधयन् स्वतन्त्रं, निष्पक्षं, प्रोत्साहनमुक्तं च निर्वाचनं सुनिश्चेतुं, समन्वितरूपेण कार्यं कर्तुं, समन्वितक्षेत्रं सुनिश्चेतुं च आयोगस्य पर्यवेक्षकान् निर्देशितवान्। भारतीय रिजर्व बैंक इत्यस्य मौद्रिक नीतेः समीक्षोपवेशने रेपोरेट इत्यस्मिन् परिवर्तनं विनैव सार्धषट्प्रतिशतं गणनांकः पूर्ववदेव स्थापितः। उपवेशनमिदं आरबीआई इत्यस्य मौद्रिक नीति समित्याः द्वैमासिक उपवेशनम् आसीत्, यस्मिन् प्रतिदान प्रतिशततायाः विषये निर्णयो नीतः। मुम्बई समित्याः उपवेशनानन्तरं आरबीआई प्रमुखेण श्री शक्तिकान्त दासेन प्रोक्तं यत् ऋण प्रतिदानम् अपरिवर्तितमेव स्थास्यतीति। आरबीआई पक्षतः प्रसारित वक्तव्यानुसारं व्यापकरूपेण आर्थिक वित्तीयानां च घटनाक्रमाणां विस्तृतानुशीलनानन्तरं समित्या सातत्येन चतुर्थे द्विमासिकोपवेशनेऽपि प्रतिदान राशेः प्रतिशतं यथावदेव स्थापितमस्ति। मुम्बई नगरे गोरेगांव इत्यत्र आजादोद्यानस्य समीपे एकस्मिन् सप्ततलात्मके भवने ह्यः प्रातः अग्निकाण्डे सप्त जनाः मृत्युमुपगताः, चत्वारिंशच्च अन्ये जनाः व्रणिताः, पञ्च जनानां स्थितिः गभीरा अस्ति इति उच्यते, एकपञ्चाशत् जनाः संरक्षिताः, भवनस्य आपणे सामग्रीषु वाहनेषु च अग्निदोषमजायत। ईरानस्य मानवाधिकार कार्यकर्त्री नर्गिस मुहम्मदी इत्यस्यै महिलानाम् उत्पीडनं विरुध्य संघर्षाय विंशति वर्षस्यास्य नोबेल शान्ति पुरस्कारः प्रदत्तः। सा सम्प्रति कारागारे एव अस्ति। चीनदेशस्य हंगचो नगरे समायोज्यमानायाम् एशियाई क्रीडायां भारतेन आहत्य ऐतिहासिकरूपेण पञ्चनवतिः पदकानि अर्जितानि सन्ति, येष् द्वाविंशतिः स्वर्णपदकानि, चतुस्त्रिंशत् रजतपदकानि, एकोनचत्वारिंशत् कांस्यपदकानि च सन्ति। सम्प्रति पदकगणनायां भारतं चतुर्थे स्थाने वर्तते। विश्वकप क्रिकेट प्रतियोगितायां अद्य बांग्लादेश अफगानिस्तानयोर्मध्ये धर्मशालायां स्पर्धा भविष्यति।